सर्वेभ्यः नमस्कारः. अस्माकं भाषितसंस्कृतवर्गे सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वति नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अथ माहेश्वराणि सूत्राणि ऐवुन् ऋक् एवोङ्ग अयौच हयवरट् गण ञमाङ्गम जभै घ धष जभगडदश खफ छठ थ चटतौ कपै शश सर् हल् इति माहेश्वराणि सूत्राणि. वयं स्वरविज्ञानम् इत्यस्मिन् विषये स्मः. तत्र सामान्यतया व्याकरणग्रन्थेषु संज्ञाप्रकरणम् इति भवति. तत्रैव एतानि सूत्राणि उल्लेखितानि भवन्ति. अहं सर्वज्ञानम् इति उक्तवान् अस्मि. तस्य नामकरणं कृतवान् अस्तु भवतु. एतत् सर्वं गतवर्गे पुनस्मारणं कृतम्. उच्चारणस्थानम् अस्तु. अष्टौ स्थानानि वर्णानां पुरःकण्ठशिरस्थता जिह्वा मूलं च दन्ताश्च नासिका ओष्ठौ च तालू च इति स्थानीनां विषये अयं श्लोकः उक्तः अस्ति. अत्र स्थानम् इत्युक्ते वर्ण उत्पत्तिस्थानम् इति अवगन्तव्यम्. तत्र अद्यपि अस्मिन् श्लोके अष्टस्थानानि सन्ति इति उक्तमस्ति. तथापि तत्र कण्ठः शिरः इत्युक्ते मूर्धा जिह्वामूलं तन्त्रं दन्ताः नासिका नासिका अपि स्थानत्वेन न स्वीकुर्मः. ओष्ठौ तालु एतानि स्थानानि एव तत्र स्थानरूपेण स्वीकुर्मः. यद्यपि तत्र श्लोके अष्टौ स्थानानि अयं श्लोकः तु तत्र पाणिनीयशिक्षा ग्रन्थे अस्ति ततः एव मया स्वीकृतम्. अत्र अष्टौ स्थानानि उक्तमस्ति तु व्याकरणे यदा वयं सवर्णसंज्ञा अस्ति वा नास्ति वा सवर्णम् अस्ति वा नास्ति वा इति चिन्तनं कुर्मः. तत्र स्थानम् इत्युक्ते केवलं कण्ठः कण्ठः जिह्वामूलं कण्ठः अथवा कण्ठः जिह्वामूलं मूर्धा तालु दन्ताः अनन्तरम् ओष्ठौ तत्र एतानि स्थानानि एव स्वीकुर्मः. उरः अपि च नासिका स्थानिरूपेण न स्वीकुर्मः. सो उरः कुत्र प्राधान्येन भवति इत्युक्ते हकारस्य यदा ह इति वदामः तत्र तस्य आवश्यकता भवति. ह इति वदामश्चेत् उरहतः तस्य तत्र सर तत्र वर्ण उत्पत्तिः भवति इति शास्त्रे उक्तमस्ति. तथापि तत्र कण्ठः इति एव हकारस्य स्थानम् इति स्वीकुर्मः. नासिका तु अनुनासिकवर्णानाम् अनुस्वार अपि नासिका अस्ति. सो अनुनासिकवर्णानाम् अनुनासिकवर्णानां केवलं नासिका स्थानम् इति न वक्तुं शक्नुमः. यतोहि तत्र ज्ञामागाण न इति एते अनुनासिकवर्णाः वर्गीयव्यञ्जनानि, तेषां नासिका एव स्थानम् इति न वक्तुं न प्रभवामः. तत्र ज्ञ इति स्वीकुर्मश्चेत् कण्ठः अकूहविसर्जनीयानां कण्ठः इति तत्र नियमेन तत्र कण्ठः अपि तस्य उत्पत्तिस्थानम् अस्ति. स्थानविषये नासिकायाः ग्रहणं न भवति. तदा ज्ञकार न इति वर्णस्य उत्पत्तिस्थानं किम् इति कोऽपि पृच्छति चेत् तदा किं न श्रूयते वा मम ध्वनिः? न श्रूयते वा?
श्रूयते महोदय.
श्रूयते
महोदय. महोदय सुजित् महोदय एकवारं लाग् औट् कृत्वा पुनः आगच्छतु. न श्रूयते चेत् पुनः आगच्छतु. अद्य दशजनाः एव सन्ति. अस्तु, गतवर्गे 20 जनाः आसन्. अस्तु भवतु. अस्तु मध्ये किं नासिका न इति वर्णस्य उच्चारणं कण्ठतः भवति इति एव स्वीकुर्मः. अस्तु, अकूहविसर्जनीयानां कण्ठः, तदा अकारस्य कवर्गीयव्यञ्जनानां हकारस्य विसर्गः तस्य च एतेषाम् उत्पत्तिस्थानमस्ति कण्ठः इति अस्ति. इचुवशानां तालु इकारस्य चवर्गीयव्यञ्जनानां तन्त्रं यकारस्य शकारस्य उच्चारणस्थानमस्ति तालु. एवं ऋटुरशानां मूर्धा ऋकारस्य टवर्गस्य रेफस्य शकारस्य च षकार इति षण्मुगशकारः, तस्य उत्पत्तिस्थानमस्ति मूर्धा. अत्र उत्पत्तिवर्णोत्पत्तिस्थानम् इत्युक्ते गतवर्गे किञ्चित् तस्मिन् विषये उक्तम् इत्युक्ते वायुनाभि आरभ्य तत्र तत्र गलबिलद्वारा तत्र उपरि आगत्य अस्माकं मुखे इत्युक्ते मुखे केषुचित् स्थलेषु तस्य स्पर्शनं भवति. स्पर्शनम् अथवा अभिघातं भवति इति वदामः. अभिघातं स्ट्रैक् इति वदामः खलु. अभिघातः सः अभिघातः भवति वायु तु. तत्र अभिघातः वायुः कथं वा तत्र भिन्नभिन्न वर्णानाम् उच्चारणं कारयति इत्युक्ते तत्तु जिह्वायाः स्थानं. जिह्वा कुत्र स्पृष्टः अस्ति? जिह्वायाः न तु केवलं जिह्वायाः मूलं कुत्र अस्ति? उपमूलम् इत्युक्ते क्लोस् टु द टिप्, तदपि तदनन्तरं मध्यभागः वा तत्र जिह्वा मूलमेव अग्रं क्षम्यताम् जिह्वायाः अग्रभागः, अग्रभागः इत्युक्ते टिप्, अग्रभागः कुत्र स्पृष्टः भवति, तदनन्तरम् उपार अग्रभागः कुत्र स्पृष्टः भवति, तदनन्तरं मध्यभागः कुत्र स्पृष्टः भवति, तत्सर्वम् आधारीकृत्य एव तदा उच्चारणं भवति इति कृत्वा एव तत्र उच्चारणस्थानम् इति तत्र मुखे केषाञ्चन स्थानानां स्थानीनां क्षम्यतां किं वदामि स्थानिन्यः स्वीकुर्मः उच्चारणस्थानी इति क्षम्यतां स्थानं स्थानमेव स्थानं स्थानानि स्वीकुर्मः मम भ्रमः अभवत् अस्तु इति भिन्नभिन्न उच्चारणस्थानमिति जिह्वायाः स्पर्शः प्राधान्येन कुत्र भवति इत्येव अस्ति तदनन्तरं ऋतुलसानां दन्ताः इत्युक्ते तत्र लकारस्य ऋकारस्य ऋकारस्य तदनन्तरं तवर्गस्य तवर्गाणां सकारस्य उच्चारस्थानमस्ति दन्ताः इति तदनन्तरम् उपोपध्मानीयानाम् ओष्ठौ तत्र उकारस्य तवर्गस्य उपध्मानीयस्य उच्चारणस्थानमस्ति ओष्ठौ न्यामगणनानां नासिका अस्ति नासिका च इति उल्लिखित अस्ति अत्र लिखितमस्ति नासिका च इत्युक्ते प्रत्येकस्य अनुनासिकवर्णस्य तत्तद् उच्चारणस्थानं स्वीकुर्मः अपि च नासिका अपि स्वीकुर्मः तदनन्तरं वर्गीयव्यञ्जनेषु अनुनासिकेषु अनुनासिकाः एदैतोः कण्ठतालु तत्र बिन्दुः नास्ति एदैतोः कण्ठतालु ओदौतोः कण्ठोष्टं बकारस्य दन्तोष्टम् इति अस्ति इत्युक्ते ओकारस्य औकारस्य उत्पत्तिस्थानं द्वयम् अस्ति कण्ठः अपि अस्ति ओष्टौ अपि स्तः एवम् एदैतोः इत्युक्ते एदैतोः कण्ठतालु इत्युक्ते कण्ठः अपि अस्ति तालु अपि अस्ति तेषाम् उच्चारणे वकारस्य दन्तोष्टं दन्तानां प्रयोगः अपि भवति ओष्टयोः प्रयोगः अपि भवति एवं प्रयत्नः द्विधा आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः इति तत्र आभ्यन्तरचतुर्धा स्पृष्टम् ईशस्पृष्टं विवृतं संवृतम् इति तत्र ईशस्पृष्टमपि केचन वैयाकरणः स्वीकुर्वन्ति स्पृष्टं प्रयत्नं स्पर्शाणाम् ईशस्पृष्टम् अन्तस्थानाम् ईषद्विवृत्तं तत्र ईषद्विवृत्तं विवृतं स्वराणाम् अथवा ऊष्माणां स्वराणाम् अपि च ऊष्माणाम् ऊष्माणां क्षम्यताम् ऊष्माणां ह्रस्वस्वरस्य संवृतम् इति अस्ति एतावता अस्माभिः गतवर्गे तदनन्तरं सवर्णसंज्ञा सवर्ण इत्युक्ते सवर्णः द्वौ वर्णौ सवर्णौ इति कदा वदामः इत्युक्ते इदानीं द्वयोः वर्णयोः उच्चारणस्थानमपि समानम् अस्ति तदनन्तरम् आभ्यन्तरप्रयत्नः अपि समानः अस्ति तदा तौ वर्णौ परस्परं सवर्णौ इति अस्ति तत्र सामान्यनाझलौ इति सूत्रेण तत्र व्यञ्जनानां स्वराणां तत्र सवर्णसंज्ञा न परस्परसवर्णसंज्ञा न विधीयते इति अपि नाझल इति सूत्रेण अस्माभिः पठितम्. अस्तु, अस्तु, इदानीम् एतद् एतद् वक्तुं लक्ष्मीभगिन्या एतत् प्रेषितं, दृष्टवन्तः अहं न जानामि. इदम् इदं श्लोक अयं श्लोकः अस्ति स्वारस्यार्थमेव. किञ्चित् मध्ये वदामि, तदनन्तरं वर्गम् इति कथेन. नपुंसकम् इति ज्ञात्वा प्रियायै प्रेषितं मनः, तत्तु तत्रैव रमते हताः पाणिः न वयम्. तस्य अर्थः कोऽपि अवगच्छन्ति वा? अस्य श्लोकस्य अर्थः कः इति कोऽपि वक्तुं शक्नोति वा?
वक्तुं शक्यते. मनः नपुंसकलिङ्गी अस्ति, मनस् सकारान्तनपुंसकलिङ्गी. व्याकरणविषये वयं वदामः, परं यदा भावस्य विषये वदामः, भावनाविषये, तर्हि तत् नपुंसक इति वक्तुं न शक्यते.
तत्तु प्रथम अत्र नपुंसकम् इति किं नपुंसकम् इति ज्ञात्वा
मनः नपुंसकम् इति ज्ञात्वा
प्रियायै प्रेषितं. प्रियायै प्रेषितम् इत्युक्ते
प्रिय व्यक्ति व्यक्तये प्रिया या अस्ति तस्यै,
या कोऽपि प्रियतमा अस्ति सम्प्रति. तत्र यद्यपि चतुर्थी अस्ति, तत्र द्वितीया अपि स्वीकर्तुं शक्नुमः. तत्र तां प्रति मनः मया प्रेषितम् अस्ति इत्युक्ते अहं भावनालोके अस्मि इति. इदानीम् अग्रिमवाक्यं पङ्क्ति,
तत्तु तत्रैव तत्रैव इत्युक्ते प्रियायाः समीपं,
प्रियायाः समीपे समीपमस्ति अपि शब्दमेव.
प्रियायाः समीपे मनः रमते इति, पाणिनिना वयं हताः इति. पाणिनि उक्तवान् मनः नपुंसकम् अस्ति इति, तर्हि कथं वा इति वा?
अत्र श्लोकस्य अर्थः इत्युक्ते मनः तु भावनालोके अस्ति, प्रियायै प्रेषितं मनः, तत्तु तत्रै रमते. मनः तु तत्र भावनालोके रमते. इदानीं पाणिनिमहर्षिणा यत् उक्तमस्ति, सूत्राणि सन्ति, उक्तानि सन्ति, तानि अस्मान् घ्नन्ति इति अर्थः. घ्नन्ति
भिन्नं पाठयन्ति,
हन्ति, हतः, घ्नन्ति इति अस्ति. हतः हतः इत्युक्ते वयं हतः, पाणिनिना वयं हतः इति अन्वयं भवति. पाणिनिना वयं हतः इत्युक्ते पाणिनिसूत्रैः वयं हतः भवामः इति अर्थः. इत्युक्ते किमपि अवगन्तुं शक्नुमः यदा मनः अत्र नास्ति चेत् इति अर्थः. मार्गे नास्ति चेत् तत्र वर्गे अस्माकं मनः नास्ति चेत् पाणिनिसूत्रैः वयं हतः भवामः इति अर्थः. अस्तु, अवगतमिति नपुंसकम् इति ज्ञात्वा प्रियायै प्रेषितं मनः, तत्तु तत्रैव रमते हताः पाणिनिना वयं. तत्कारणेन वयं वदामः किमपि न अवगतम् इति. अस्तु, एवमेव भवति. अस्तु, इदानीं वर्गे किञ्चित् पश्येम वर्गस्य विषये. अस्तु, सवर्णस्य विषये सन्देहः वर्तते वा यस्य कस्यापि?
न
अस्तु अत्र तदा अहम् एकं अस्तु ठ इति वर्णः अस्ति तदनन्तरं ढ इति वर्णः अस्ति एतौ वर्णौ सवर्णौ वा तत्र एकनिमिषं भगिनि गौरी गौरी भगिनी वदति वा गौरी भगिनी
आं महोदय नमस्कार
नमस्कार
ऋटुरसानां मूर्धा ठ
मूर्धा इति अस्ति अस्तु मूर्धा
ढकारस्य अपि ऋटुरसा मूर्धा एव
मूर्धा अस्तु तेषां प्रयत्नः
स्पष्टम् प्रयत्नः स्पृष्टं वा
स्पृष्टं सत्यं
स्पृष्टं
कथम् अवगतवती
यदा वयं ठ इति उच्चारं कुर्मः जिह्वा स्पृशति
अस्तु भगिनि तत्तु सामान्य इदानीं साधु वदति चेत् न पर्याप्तं भवति इदानीं वृत्ति
आमां
वृत्तिका इति वदति
कदा कदा यो मावसानां स्पर्शः
कादयो मावसानः स्पर्शः
कादयो मावसानां स्पर्शः क क आदि मकारपर्यन्तं यानि व्यञ्जनानि सन्ति ते सर्वे स्पृष्टाः स्पर्शाः
तदनन्तरं स्पर्शः इति उक्तवती तदनन्तरम् उच्चारणस्था किं प्रयत्नः कः स्पर्शाणां स्पृष्टं प्रयत्नं स्पर्शाणाम् इति वृत्ति अस्ति
स्पृष्टं प्रयत्नं स्पर्शाणां
तद् कण्ठस्थीकरणं कुर्वन्तु सर्वे इति कृत्वा सवर्णौ इति वदामः
आम्
अस्तु धन्यवादः
धन्यवादः
महोदय अकार अस्ति तदनन्तरं घकार अस्ति एतौ सवर्णौ वा तत्र सुजाता भगिनी वदति वा
आम् महोदय सवर्णः अस्ति
सवर्णः अस्ति वा कथम् इति वदतु सवर्णौ स्तः सवर्णसंज्ञा अस्ति व्यजने रेग्युलेटर् न कार्यं करोति अस्तु भवतु वदतु कथम् असवर्णौ
कवर्गे अस्ति
तकारस्य विषये वदतु प्रथमं
तकार इषु
भगिनी अस्तु, तदा अन्य कोऽपि पृच्छामि. झटिति वदतु, समयः न भवति.
वदामि वा?
भवती जानाति इति कृत्वा अहं भवतीं न पृच्छामि. विश्वकुमारः वदतु.
क्षम्यतां महोदय.
एकनिमिषं, भवती उक्तवती. तत्र यः कोऽपि टिप्पणीं द्रष्टुम् इच्छति, एकनिमिषं महोदय. तत्र जालपुटे, अस्माकं जालपुटे एतत् सर्वं टिप्पणी सर्वं तत्र लब्धुं शक्यते. एतत् सर्वम् अस्ति जालपुटे. यदा अहं गृहपाठं प्रेषयामि तस्मिन् समये एव तत् गतवर्गस्य टिप्पणी सर्वं भवति तत्र. तद् एकवारं पठित्वा आगच्छन्ति चेत् वर्गः सुलभः भवति. अस्तु महोदय, भवतु. श्रूयता भगिनी, म्यूट् मध्ये भवतु.
तकारस्य स्थानं घकारस्य स्थानं
कण्ठः.
घकारस्य आभ्यन्तरप्रयत्नं स्पृष्टम्. घकारस्य आभ्यन्तरं प्रयत्नं स्पृष्टम् एव.
स्पृष्टं तदा
समान सवर्ण न स्थानं भिन्नम्
असवर्णौ इति वदामः.
असवर्णौ
सकारः अस्ति. तकारः अस्ति. तत्र पद्मा भगिनी,
सकारः स्थानं
पत्रमस्ति वा भवत्याः पुरतः? भगिनी तत्र स्थानं भवति, भगिनी प्रथमं स्थानं भवति. कुत्र सकारः तालु वृत्ति किं वृत्ति का वृत्ति वृत्ति वदतु. वृत्ति इत्युक्ते लघु सूत्ररूपेण अस्ति खलु, तदेव वृत्ति. सा एव वृत्ति.
क्षम्यतां महोदय, अहम्
अस्तु
पृष्टं
न तत्र स्थानि स्थानं किम् इति वदतु. स्थानि न स्थानम् अस्तु. याश् याश् महोदय, यशोदा भगिनी, याश् जयराम, यशोदा भगिनी, क्षम्यताम्.
सारी,
ऋतुलसानां दन्ताः. ऋतुलसानां तत्र सकारः अस्ति वा? ऋतुलसानां अस्तु. इदानीं तकारस्य दन्ताः. इदानीं प्रयत्नं
सवर्गीयप्रयत्नं स्पर्शं सवर्गीयं वर्गस्य प्रयत्नम् ऊष्माणः
ऊष्माणः वा शल ऊष्माणः तदा ऊष्माणः इत्युक्ते तस्य प्रयत्नं किं भवति
सवर्गस्य प्रयत्नं स्पर्शं
स्पृष्टं स्पृष्टं
स्पृष्टं
प्रयत्नम् अन्तस्ताः शल ऊष्माणः
स्पर्शः अन्तस्ताः स्वरः स्वरः ऊष्माणः विवृतं विवृतं
विवृतम् अस्ति तदा
असवर्णम्
असवर्णौ
असवर्णौ
अस्तु एवं चिन्तयन्तु एवं कुर्मश्चेत् सवर्णौ वा न वा इति ज्ञातुं शक्नुमः अस्तु धन्यवादः इदानीं सवर्णसंज्ञाविधायकसूत्रमिति विधानम् इति विधानम् एतत्तु सवर्णसंज्ञा विधानम् इत्युक्ते विधीयते सवर्णसंज्ञां विधीयते इदानीं सवर्णग्राहकम् ग्राहकविधिः अस्तु रूपं शब्दस्य अशब्दसंज्ञा इति सूत्रं प्रथमाध्याये प्रथमपादे तत्र पञ्च अथवा पञ्च संरूपम् अष्ट संरूपं शब्दस्य अशब्दसंज्ञा अस्तु अस्य कथं वदामि इत्युक्ते अस्तु एवं वदामि त्वं त्वं रूपम् इति तत्र प्रथमः एकवचनम् अस्ति रूपं रूपम् इति इत्यपि प्रथमः एकवचनमस्ति शब्दस्य षष्ठी एकवचनमस्ति अशब्दसंज्ञा स्वं रूपं शब्दस्य अशब्दसंज्ञा इति विधिसूत्रमस्ति. तत्र शब्दस्य संज्ञा शब्दसंज्ञा शब्दस्य संज्ञा शब्दसंज्ञा न शब्दसंज्ञा न शब्दसंज्ञा इति अस्ति. एतत्तु समासः, अत्र समासः अस्ति. इदानीम् अत्र किञ्चित् वदामि. इदानीं लौके यत्किमपि पदं वयं प्रयोगं कुर्मः, पदस्य प्रयोगं कुर्मः, यस्य कस्यापि पदस्य प्रयोगं कुर्मः, तदा किं भवति? इदानीं पुस्तकम् इति पदस्य प्रयोगम् अहं करोमि, तदा किं वयं सामान्यतया अस्माकं मनसि भवति इत्युक्ते, तत्पदं श्रुत्वा अस्माकं पुस्तकम् इति पदं केवलं पुस्तकस्य पुस्तकम् इति पदं केवलं तत् पदं न स्वीकुर्मः, अपि तु तत्र पुस्तकम् इति संज्ञा यस्य अस्ति सन्नि तस्यापि ग्रहणं भवति. इदानीं पुस्तकम् इति संज्ञा अस्ति, पुस्तकम् इति संज्ञा, संज्ञिका यस्य पुस्तकं संज्ञि इत्युक्ते यस्य यस्य पुस्तकम् इति संज्ञा अस्ति सः संज्ञि. संज्ञिनः अपि ग्रहणं भवति. तत्र संज्ञि इत्युक्ते संज्ञिन् इति प्रातिपदिकं नकारान्तः अस्ति. संज्ञिनः ग्रहणं भवति, न तु शब्दस्य ग्रहणम् अपि तु तस्य अर्थस्य ग्रहणम् इत्युक्ते लोके न केवलं शब्दस्य ग्रहणं शब्दस्य ग्रहणमपि भवति अर्थस्य ग्रहणम् अपि ग्रहणम् अपि भवति. एतत्तु स्पष्टः इति अहं चिन्तयामि. इदानीं तत्र रामः इति वदामश्चेत् तत्र न तु केवलं राम इति शब्दस्य ग्रहणं भवति, अपि च तत्र अपि च इति तस्य तत्र रामः यः इति संज्ञा यश अस्ति दशरथपुत्रः तस्यापि ग्रहणं भवति एव. एवमेव अस्ति लोके. इदानीं व्याकरणे कथम् अस्ति इति वदामश्चेत् तत्र व्याकरणे इदानीं सूत्रमस्ति. एतत्तु तत्र सामान्यतया तत्र सम्प्रदाये अग्नेर् ढक् इति उदाहरणमस्ति. अग्नेर् ढक् इत्युक्ते अग्नेः ढक् अग्निना सह ढक् इति योजयतु इति. तत्र अग्निः भवतु तदनन्तरं डक् इति प्रत्ययं योजयतु इति अर्थः. इदानीं यथा लोके अस्ति तथा कर्तुं शक्नुमो वा व्याकरणे? इदानीम् अग्निः इत्युक्ते साक्षात् अग्निः पावकः, तम् आनय डक् इति योजयितुं शक्नुमः वा? न शक्नुमः. डक् इति प्रत्ययः अस्ति, अस्माकं मनसि अस्ति डक् तु. अग्निः साक्षात् पुरतः अस्ति. इदानीम् अग्निः आनय तत्र डक् इति योजयामः न तत्तु न योजयितुं शक्नुमः इति कृत्वा तत्र व्याकरणे किं भवति इत्युक्ते अर्थस्य गगनं न भवति, गगनं न भवति, केवलं शब्दरूपं, केवलं शब्दस्य रूपस्य ग्रहणं भवति। इदानीं शब्दस्य स्वं रूपं, तदेव स्वं रूपं शब्दस्य इत्युक्ते यत्किं यः कोऽपि शब्दः तस्य स्वं रूपम् इत्युक्ते तस्य रूपं, यत् रूपम् अर्थः न तु रूपं, रूपं किं राम इति शब्दस्य रूपं किं राम एव, तदेव रूपमस्ति, तस्य एव ग्रहणं भवति इति अर्थः। इदानीं सर्वत्र तादृशमस्ति वा इति पृच्छति चेत् न। इदानीं सर्वे जानन्ति एव अत्र इको एनर्जि इति स्वीकुर्मः, इको एनर्जि इति सूत्रमस्ति। अत्र किमस्ति, इक् इति अस्ति संज्ञा, यन् इति संज्ञा, अच् इति संज्ञा अस्ति। इदानीम् अत्र केवलं रूपग्रहणं भवति चेत् किं भवति, इक् इति रूपग्रहणम्, इक् अच् यन् इति एव रूपग्रहणं भवति, तादृशं नास्ति तु। व्याकरणे ये याः संज्ञाः सन्ति व्याकरणे, याः संज्ञाः विधीयन्ते तेषाम् अर्थग्रहणं भवति। इत्युक्ते इक् इत्युक्ते किम्, इक् इत्युक्ते इ उ तं तथा ऋल् ऐ ऊण् ऋलुक् एते वर्णाः, एते वर्णाः एव भवन्ति सञ्ज्ञि, इक् इति संज्ञा अत्रैव लिखामि, इक् इति संज्ञा अस्ति, सञ्ज्ञि के इत्युक्ते सञ्ज्ञि के इत्युक्ते इ उ ऋल् इ इति सञ्ज्ञि अस्ति, उ इति सञ्ज्ञि अस्ति, सञ्ज्ञः सन्ति एते इति एतेषां वर्णानां ग्रहणं भवति इति सञ्ज्ञि इत्युक्ते तस्य अर्थः, इक् इति प्रत्याहारस्य अर्थः इ ऊरु, एतेषां वर्णानां ग्रहणं भवति व्याकरणशास्त्रे, एवं भवति। इदानीं
महोदय, संज्ञा सञ्ज्ञि एतयोः भेदः किं, सञ्ज्ञि इत्युक्ते
मया अत्र लिखितं खलु सञ्ज्ञि,
यस्य संज्ञा अस्ति, यस्य
संज्ञा, यस्य सञ्ज्ञि इत्युक्ते यस्य पुस्तक, यस् किं लिखितवान् किं लिखितम् अत्र, यस्य
पुस्तकम् इति संज्ञा,
यस्य पुस्तकम् इति संज्ञा यस्य अस्ति, यस्य तत् अवसरः सा किमपि स्वीकरोतु, तत् स्वीकरोतु, सः वा तत् वा सा वा किमपि भवतु, तत् इत्येव स्वीकुर्मः. तत्
सन्नि तत् सन्नि
सन्नि.
अस्तु अस्तु महोदय, धन्यवादः.
यस्य एषं पुस्तकम् एकनिमिषं पुस्तकम् इति संज्ञा यस्य तत् संज्ञा
पुस्तकमिति संज्ञा यस्य
संज्ञिन् पुस्तकम् इति स्वीकुर्मश्चेत् क्लेशः भवति. राम इति सुलभः भवति. राम इति संज्ञा यस्य सः इति यस्य सः तदा सः सः सन्नि भवति. एवमस्ति, राम इति संज्ञा,
राम
इति संज्ञा यस्य सः सन्नि सः सन्नि इति वदामः. तस्य अर्थः शब्दस्य अर्थः एव सन्नि. इदानीं कुत्र केवलम् एतत्तु अस्ति. इदानीं तत्र सूत्रे अग्नेः ढक् इति सूत्रमस्ति. तत्र अग्निशब्दः अस्ति, अग्निशब्दः अस्ति, तस्मात् ढक् इति प्रत्ययं योजयामः इति अर्थः. अत्र अग्निशब्दः तु कथं भवति, यदा कदा इत्युक्ते तत्र आणुपूर्वी भवति इति वदामः. आणुपूर्वी आणुपूर्वी इत्युक्ते क्रमः, क्रमशः क्रम यथाक्रमं भवतु, यथाक्रमं वर्णानां तस्य ग्रहणं भवति, वर्णानां ग्रहणं यथाक्रमं भवति. इत्युक्ते प्रथमं आ भवति, तदनन्तरम् इग् भवति, तदनन्तरं नकारः भवति, तदनन्तरम् इकारः भवति. एवं क्रमः अनतिक्रम्य क्रमम् अनतिक्रम्य भवति. प्रथमम् अकारः एव भवति, तदनन्तरं गकारः एव भवति, एवं नकारः एव भवति, तदनन्तरम् इकारः भवति. तत्र अकारः मध्ये वा गकारः पूर्वं वा इति मा भवतु इति तदपि अस्ति. तदेव अस्य सूत्रस्य अर्थः. स्वं रूपं, स्वं रूपं ते शब्दस्य स्वं रूपं, शब्दस्य रूपम् एव गृह्यते व्याकरणशास्त्रे. आशब्दसंज्ञा, आशब्दसंज्ञा इत्युक्ते अत्र आशब्दसंज्ञा इत्युक्ते शास्त्रे उक्ताः संज्ञाः शब्दशास्त्रे इति वदामः. शब्दशास्त्रे ताः विना व्याकरणशास्त्रे याः संज्ञाः उक्ताः ताः विना इति अर्थः. तत्र ताः विना इत्युक्ते तत्र व्याकरणशास्त्रे याः संज्ञाः सन्ति तेषाम् अर्थग्रहणं भवति इति अर्थः. लौकिकशब्दानां तु रूपग्रहणं भवति. व्याकरणशब्दे शास्त्रे याः संज्ञाः सन्ति तेषां केवलं शब्दशास्त्रे याः संज्ञाः सन्ति उक्ताः सन्ति तेषां तु अर्थग्रहणं भवति इति अर्थः. अवगतं वा कथम् इति?
औरेकवारं वदतु महोदय.
अस्तु, अत्र किञ्चित् भ्रमात्मकः एव भवति एतत् सूत्रं. सामान्यतया लघुसिद्धान्तकौमुद्यमपि एतत् सूत्रं नास्ति, तदापि तत्र आवश्यकता अस्ति इति कृत्वा अहं वदामि. स्वं रूपम् इदानीं इदानीं सूत्रं दृष्ट्वा तस्य अर्थग्रहणं अर्थस्य ग्रहणं कर्तुं प्रयत्नं करोति चेत् तदा किमपि अवगन्तुं शक्नुमः. तत्र स्वं रूपं शब्दस्य शब्दसंज्ञा इति सूत्रमस्ति. अत्र सूत्रे यावत् पदम् अस्ति तेषाम् आधारेण अवगमनं न भवति तु तत्र व्याख्याने किम् अस्ति इति दृष्ट्वा एव किञ्चित् अहं वदामि. इदानीं तत्र सामान्यतया किम् अस्ति इत्युक्ते इदानीम् उदाहरणं स्वीकरोमि. रामः आगच्छति इति अस्ति. अत्र सन्धिं कुर्मश्चेत् तत्र विसर्गसन्धिः भवति, विसर्गसन्धिः भवति खलु. तत्र रामः आगच्छति अथवा पात्रम् एवं स्वीकुर्मः, पात्रं दीपः आनयतु इति अस्ति. दीपः दीपम् आनयतु, दीपम् आनयतु इति अस्ति, दीपम् आनयतु इति अस्ति. एवं स्वीकुर्मः केवलं तत्र उदाहरणार्थम्. इदानीं दीपम् आनयतु इत्युक्ते भवती दीपम् आनयत् अत्र सन्धिं करोति वा? न, तादृशं नास्ति खलु. अत्र दीपम् इति शब्दं यत् अस्ति तस्य शब्दः यः अस्ति तमेव शब्दं स्वीकुर्मः. आनयतु इत्युक्ते क्रिया नास्ति, अत्र पदमेव अस्ति, शब्दः एव अस्ति. आनयतु इति पदं तदेव स्वीकुर्मः, दीपम् इति यत् पदम् अस्ति तदेव स्वीकुर्मः. न तु तत्र दीपम् आनयतु इति अहं वदामश्चेत् तत्र साक्षात् दीपम् आनय अत्र व्याकरणवर्गेण तिष्ठति. दीपम् आनय इत्युक्ते दीपम् इति शब्दं, तन्त्रम् आनयतु इति शब्दम्, आनय इति आनयतु इति शब्दम् अस्ति, आनय इति शब्दम् अस्ति. एतयोः शब्दयोः एव ग्रहणं भवति, तदेव अत्र उक्तमस्ति. इदानीं दीपम् इति संज्ञा अस्ति, संज्ञी अस्ति साक्षात् दीपम्, दीपम् इति संज्ञा अस्ति, दीपं तत्र लेम्प् तद् साक्षात् तत्र संज्ञे अस्ति.
तस्य वस्तुनः ग्रहणम् इति वा?
वस्तुनः ग्रहणं न भवति, तदेव अर्थग्रहणम्. अर्थग्रहणं न भवति, शब्दग्रहणम् एव भवति. आनय इत्युक्ते क्रिया इत्युक्ते किमपि क्रियां कृत्वा अत्र व्याकरणवर्गेण उपस्थास्यामः तु अत्र पदमेव, आनय इति पदमेव वयं स्वीकुर्मः. अत्र शब्दग्रहणम् एव अस्ति, एव भवति, न तु अर्थग्रहणम्. इत्युक्ते अहं दीपम् इति वदामश्चेत् झटिति अस्माकं मनः कुत्र गच्छति, यत्किम यं कमपि दीपं प्रति गच्छति खलु, अस्माकं गृहे यः दीपः अस्ति तं प्रति गच्छति मनः, तु व्याकरणशास्त्रे तादृशदीपम् इति वदामश्चेत् केवलं शब्दस्य एव ग्रहणं भवतु इति अस्ति, इत्यपि अस्ति. एवं तत्र भिन्न उदाहरणमपि वदामि. आत् गुणः इति सूत्रमस्ति, आत् गुणः. अत्र गुणः इत्युक्ते किं? गुणः इति संज्ञा अस्ति. गुणः इति संज्ञा अस्ति. गुणः संज्ञा अस्ति चेत् तत्र एतत्तु व्याकरणे उक्ता संज्ञा अस्ति. व्याकरणशास्त्रे पाणिनिमहर्षिणा उक्ता संज्ञा अस्ति गुणः इति. इदानीं गुणः इति गु उ गु उ न विसर्गः, एतेषां वर्णानां ग्रहणं नास्ति. गुणः इत्युक्ते किं? तत्र अकारः, एकारः, ओकारः इति अस्ति.
अस्ति
तेषां ग्रहणं तेषां ग्रहणं भवति. गुण इति संज्ञा अस्ति, सन्नी अस्ति. सन्नी इत्युक्ते संज्ञा यस्य अस्ति. सन्नी अस्ति तेषां ग्रहणं भवतु इति अस्ति. किमर्थं? गुणः इति शब्दः व्याकरणे उक्तः अस्ति. गुणः इति संज्ञा अथवा शब्दः व्याकरणे उक्तः अस्ति इति कृत्वा संज्ञानां ग्रहणं भवति. संज्ञानां ग्रहणं भवति आ ए ओ एतेषां वर्णानां ग्रहणं भवतु इति अर्थः. अपि च तत्र दीपम् इति अत्र अस्ति, दीपं योगः आनय, तत्र इतस्ततः ग्रहणं न भवतु. तत्र दकारः, इकारः, पकारः, अकारः, मकारः एवं क्रमशः एव ग्रहणं भवतु इत्यपि अस्ति. शब्दानां ग्रहणं क्रमशः भवतु.
अवगतं महोदय, धन्यवादः.
एतत्तु सम्यक् उदाहरणं नास्ति. आणुपूर्वी इत्युक्ते तत्र यथा क्रमम् इति स्वीकुर्मः, सीरीस् आर् सीक्वेन्स्, सीक्वेन्स् इति वदामः खलु, तदेव सीक्वेन्स्, तदेव अनुपूर्वी इति वदामः. अस्तु, इदानीं द्वितीयसूत्रमस्ति. अनुदिष्टवर्णस्य आचप्रत्ययः इति सूत्रम्. एतत्तु तत्र नवत्रिंशत्तमपुटे तत्र सवर्णग्राहकसूत्रम् इति अत्र वयं पुस्तकं पठामश्चेत् अर्थविशिष्टशब्दस्वरूपग्राहकसूत्रम् इति लिखितमस्ति. इत्युक्ते अत्र स्वं रूपं शब्दस्य शब्दसंज्ञा इति सूत्रस्य कीदृशसूत्रम् इत्युक्ते तत्र अर्थ विशिष्ट शब्दस्वरूपग्राहकसूत्रमस्ति इदं सूत्रम् ओ कुत्र लिखितवान् अत्र अर्थविशिष्टशब्दस्वरूपम् अर्थविशिष्टशब्दस्वरूपं विशिष्ट शब्दस्वरूपम् इत्युक्ते गुणः इति विशिष्टशब्दः अस्ति तस्य ग्रहणं तदर्थम् अर्थविशिष्ट विशिष्टार्थः अस्ति गुणः इति शब्दस्य विशिष्टार्थः अस्ति इति कृत्वा अर्थविशिष्टशब्दस्वरूपं शब्दस्वरूपम् इत्युक्ते शब्दस्य स्वरूपं इदानीम् अग्निः इत्यत्र शब्दस्वरूपं कथमस्ति अ ग न इ इति अस्ति तदेव शब्दस्वरूपं शब्दविशिष्ट अर्थविशिष्टशब्दस्वरूपग्राहकं सूत्रम् इत्युक्ते ग्राहकविधायकसूत्रम् इति अर्थः विधायकसूत्रम् इति शब्दस्वरूपस्य ग्रहणं कथं भवतु इति अनेन सूत्रेण पाणिनिमहर्षिः विधीयते अनुदित्सवर्णस्य च अप्रत्ययः इति सूत्रम् अग्रिमपुटे अस्ति तत्र सवर्णग्राहकसूत्रमस्ति सवर्णग्राहकसूत्रम् इति लिखितमस्ति इदानीं तुल्यासप्रयत्नसवर्णम् इति कीदृशसूत्रं सवर्णसंज्ञासूत्रं सवर्णसंज्ञासूत्रमस्ति तत्र तदेव मया लिखितं सवर्णसंज्ञाविधानम् अथवा सवर्णसंज्ञासूत्रम् इति वदामः सूत्रम् इति अपि वदामः इदानीं तत्र अनुदित्सवर्णस्य च प्रत्ययः इत्युक्ते किम् इति पश्याम अत्र अण् उदित् उदित् तदनन्तरम् अनुदित्सवर्णस्य च अप्रत्ययः इति एतानि पदानि सन्ति एतानि पदानि सन्ति अनुदित्सवर्णस्य च प्रत्ययः अत्र अण् इति प्रथम एकवचनम् उदित् अपि प्रथम एकवचनं सवर्णस्य अव्ययम् अव्ययम् अप्रत्ययः इति प्रथमा एकवचनम् उदित् च स्वं रूपस्य इति एकनिमिषं स्वं रूपस्य सवर्णस्य एकनिमिषं सवर्णस्य उदुचर सवर्णस्य स्वं रूपम् इति भवति स्वं रूपस्य ग्रहणं करोति इति अर्थः अत्र अप्रत्ययः अण् तत्र कुत्रचित् अप्रत्ययः अण् इति स्वीकुर्वन्ति कुत्रचित् अण् उदित् च अप्रत्ययः अण् उदित् मिलित्वा अपि स्वीकुर्वन्ति तत्र मतभेदः अस्ति तस्मिन् विषये अनन्तरं वदामि अप्रत्ययः अण् उदित् च सवर्णस्य स्वं रूपं स्वं रूपस्य ग्रहणम् स्वस्य रूपस्य च ग्रहणं भवति इति सवर्णस्य सवर्णस्य सवर्ण केवलं तादृशमेव लिखितमस्ति एकनिमिषं सवर्णस्य अप्रत्यय अन्न उदित् च रूपस्य ग्रहणं सवर्णस्य च प्रत्ययस्य च सवर्णस्य स्वस्य इति भवति सवर्णस्य स्वस्य च ग्रहणं करोति स्वस्य तत्र स्वम् इत्यस्य षष्ठी स्वम् इत्यस्य इति पदस्य षष्ठी भवति स्वस्य तत्र अनुवृत्तिः अस्ति वृत्तिः अस्ति स्वम् इति पदं रूपमपि भवति रूपं रूपं स्वं रूपम् इति पूर्वस्मात् सूत्रात् स्वस्य सवर्णस्य स्वस्य रूपस्य च ग्रहणं करोति एवं एतत् स्पष्टः अस्ति स्वं रूपम् इति अनुवृत्तिरूपेण आगच्छति तु तत्र षष्टिविभक्तिः भवति स्वस्य रूपस्य इति भवति एवं वदामश्चेत् किञ्चित् सम्यक् अस्ति इदानीम् अत्र प्रथमम् उदित् इत्युक्ते किम् इति पश्यामः यतोहि सुलभः अस्ति उ चु टु टु पु एते उदितः इति अस्ति कूचुटुटुपि एते उदितः इदानीम् उदित् इत्युक्ते किं मया पूर्वम् अस्माभिः तत्र इत् संज्ञाप्रकरणे द्रष्टं कित् इत्युक्ते किं कित् 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 नित् तित् षित् इत्युक्ते किम् कोऽपि वदति वा स्मरति वा
क इत् इत्यसंज्ञा
क इत् संज्ञा यस्य सः कित् पित् इत्युक्ते प इत् यस्य सः पित् इदानीम् उ इत् यस्य सः
उदित्युक्ते
उदित् इति भवति
उदित्
किमर्थं तकारः योजितः अस्ति उ इत् इति वदामश्चेत् तत्र किं भवति सन्धि भवति बहु खलु उकारः अस्ति इकारः अस्ति वित् इति भवति वित् इति भवति चेत् किमपि अवगन्तुं न शक्नुमः वा इति भवति इति कृत्वा उत् उत् इति तकारयोजितः अस्ति उदित् इति वदामः तदा क्षम्यताम् उदित् उदित् इत्युक्ते उ इत् उच्चारणार्थं तकारः योजितः अस्ति अत्र अत्र कूचूटूतूपु अत्र उकारः इत् अस्ति अनुनासिक अस्ति इति वा केन सूत्रेण तस्य इत् संज्ञा भवति अनुनासिक अस्ति चेत्
उपदेशे च अनुनासिक
समीचीनं भगिनि उपदेशे अजुनुनासिक इत् सूत्रेण तस्य इत् संज्ञा भवति इति कृत्वा तत्र किं भवति इक् इच् इत् इत् इप् एतेषां ग्रहणं भवति एते उदितः इति वदामः तु सामान्यतया तदेव तत्र अस्माकं तत्र तुल्यासप्रयत्नं सवर्णम् इति सूत्रेपि किं दृष्टम् अकुह विसर्जिन् अकुह अकु इति अस्ति खलु कु तदेव कु अत्रापि अस्ति कु इत्युक्ते कवर्गः चु इत्युक्ते टवर् चवर्गः क्षम्यतां चु इत्युक्ते टव चु चवर्गः टु इत्युक्ते टवर्गः टु इत्युक्ते टवर्गः टु इत्युक्ते पवर्गः एते उदितः किमर्थम् उदितः इत्युक्ते तेषां तत्र अनुनासिक उकारस्य तेषां विद्यमान तेषु विद्यमानस्य अनुनासिक उकारस्य इत् संज्ञा अस्ति इति कृत्वा उदितः इति वदन्ति कूचोटुतूपि एते उदितः इदानीम् अप्रत्ययः इति अस्ति अप्रत्ययः इत्युक्ते किम् इति अवगन्तव्यं न प्रत्ययः अप्रत्ययः इदानीं प्रत्ययः इत्युक्ते किम् प्रतीयते विधीयते इति प्रत्ययः प्रतीयते विधीयते इति प्रत्ययः इत्युक्ते किं प्रतीयते इत्युक्ते विधीयते इति अर्थः तदेव प्रत्ययः विधीयते इत्युक्ते किम् इति अवगन्तव्यम् यत्किमपि तत्र विधिरूपेण भवति विधिरूपेण भवति सः एव विधिः इदानीं प्रत्ययः इति वदामः इत्युक्ते अत्र तत्र अस्माकम् उदाहरणम् एकवयनस्य एव सर्वदा अत्र इक् इकः यण् अचि इति अस्ति तत्र प्रत्याहारः इको यणचि इत्यत्र इकः यण् अचि इति अस्ति अत्र विधिः इत्युक्ते अत्र इक् इति विधिः नास्ति अच् इति अचि इति इकः इति विधिः नास्ति अच् अचि इति विधिः नास्ति तत्र यण् इति यत् अस्ति तदेव विधिः अस्ति विधिः इत्युक्ते इस् बिङ्ग् आर्डेण्ड् आर् इस् बिङ्ग् सेड् आर् इस् बिङ्ग् आर्डर्ड् इति वदामः स हि एव प्रत्ययः इति अत्र सामान्यतया किं भवति तत्र प्रत्ययः इति वयं दृष्टवन्तः खलु शप् इति विकरणप्रत्ययः तिङ् इति तिङ् प्रत्ययः तस्य ग्रहणम् अत्र नास्ति अत्र प्रत्ययः इत्युक्ते भिन्न अर्थः अस्ति प्रत्ययः इति शब्दस्य अस्मिन् सूत्रे प्रत्ययस्य शब्द प्रत्ययः इति शब्दस्य अर्थः अस्ति प्रतीयते विधीयते इति प्रत्ययः इत्युक्ते विधिरूपेण यत् अस्ति तदेव प्रत्ययः इति अर्थः विधिरूपेण किम् अस्ति अत्र अत्र
प्रतीयते इत्युक्ते महोदय
प्रतीयते इत्युक्ते विधीयते इति अर्थः तस्य प्रतीयते विधीयते इत्युक्ते अत्र प्रतीयते इति यः शब्दः अस्ति तस्य अर्थः अस्ति विधीयते इति यन् इति विधिः अस्ति अतः तत्र प्रत्ययः इति शब्देन यन् इव विधिः अस्ति खलु तस्य ग्रहणं भवति यन् इति विधिः अस्ति प्रत्ययः इत्युक्ते प्रत्ययः इति शब्देन यन् इति प्रत्ययस्य ग्रहणं भवति किमर्थं यन् इति विधि इति कृत्वा अप्रत्ययः इत्युक्ते किं न प्रत्ययः अप्रत्ययः इति मया उक्तं तदा यन् विहाय इत्युक्ते यन् विहाय एकनिमिषम् यन् यनं विहाय इति वक्तव्यं तत्र द्वितीयविभक्तिः अस्ति यनं विहाय सूत्रे यत् अस्ति सूत्रे इक् अस्ति इकः अपि च अचि इति पदद्वयम् अस्ति इत्युक्ते इक् प्रत्याहारः अस्ति अच् प्रत्याहारः अस्ति एतौ प्रत्याहारौ अप्रत्ययौ विधिः एव भवति प्रत्ययः प्रत्ययः अप्रत्ययः इत्युक्ते किं सूत्रे यनं सूत्रे यनं विहाय यत् अस्ति इत्युक्ते तत्र इक् अच् कथं लिखामि एतौ अप्रत्ययौ इति भवति इत्युक्ते इक् इति अप्रत्ययः अच् इति अप्रत्ययः न प्रत्ययः इति अप्रत्ययः प्रत्यय इत्युक्ते विधिः न विधिः अस्ति इति कृत्वा अप्रत्ययः न विधीयते अनेन न विधीयते अत्र अप्रत्यय इत्युक्ते तृतीयते विधीयते अनेन इति योजनीयं भवति इति अहं चिन्तयामि अहं पृष्ट्वा तस्य योजनं करोमि इदानीं करोमि चेत् दोषः भवति अहं पृष्ट्वा तु मम चिन्तनमस्ति अनेन विधीयते इत्युक्ते यन् इति पदेन विधीयते अत्र इक् अच् इति पदेन न विधीयते किं न विधीयते कार्यं न विधीयते इति अस्ति अत्र कार्यं तु यन् इति पदेन क्रियते इति अस्ति इदानीं भ्रमः अस्ति वा मया अस्तु पूर्णतया शृण्वन्तु तदनन्तरं पृच्छन्तु अस्तु इदानीम् अप्रत्ययः अण् अत्र इतोपि अस्ति इदानीं समाप्तिः करणीयं किञ्चित् यत् आवश्यकं तद् उक्त्वा समापयामि अत्र अण् अप्रत्ययः अण् सवर्णस्य स्वस्य च ग्रहणं करोति इति अस्ति खलु अप्रत्ययः अन् एतत् स्वीकुर्मः अप्रत्ययः अन् सवर्णस्य स्वस्य च ग्रहणं करोति इति अस्ति इदानीम् अप्रत्ययः अन् किम् अत्र अच् इति स्वीकुर्मः अच् इति अप्रत्ययः अस्ति खलु अच् इति अप्रत्ययः अस्ति अच् मध्ये के के सन्ति? अ इ ऊण ऋ ऋक् एवोङ् ऐ औच् एते वर्णाः सन्ति अच् मध्ये. इदानीं अच् इत्युक्ते एते वर्णाः, यथा अस्माभिः स्वरूपं शब्दस्य शब्दसंज्ञा इति सूत्रे दृष्टम्. इदानीम् अप्रत्ययः अण् एते अण् मध्ये अपि सन्ति. इदानीं माहेश्वरसूत्रं पश्यामश्चेत् अत्र माहेश्वरसूत्रे नकारः कुत्र अस्ति? नकारः अत्र अस्ति, अपि च अत्रापि अस्ति. नकारः स्थलद्वये अस्ति. अत्र अण् इति किं वदति? अण् इति अस्मिन् सूत्रे, केवलम् अस्मिन् सूत्रे, न सर्वत्र, अन्यत्र इत्युक्ते केवलम् अस्मिन् सूत्रे अण् इत्यस्य ग्रहणं केषां भवति इत्युक्ते ऐ ऊण् ऋळुक् हयवरट् तदनन्तरं ऋळुक् लण् एते वर्णाः भवन्ति अण् इति प्रत्याहारे. अस्मिन् सूत्रे यत् अण् अस्ति अणुदित् इत्यत्र अण् इति अस्ति खलु, तस्य अर्थः अस्ति तत्र ऐ ऊण् ऋळुक् एवं हयवच् हयवरट् लण्. इदानीम् अच् प्रत्याहारे अच् प्रत्याहारः तु अन्तर्भूतः अस्ति. अण् इति प्रत्याहारे अण् अन्तर्भूतः अस्ति इति कृत्वा अप्रत्ययः अण्. इदानीम् अकारः अस्ति, अत्र अकारः अस्ति. उदाहरणत्वेन तत्र इति अपि इति अस्ति. इति अपि तत्र अकारः अस्ति खलु, अकारः अस्ति. अकारः अण् मध्ये अस्ति, अच् मध्ये, अच् मध्ये अस्ति इति कृत्वा अण् मध्ये अपि अस्ति. इदानीम् अकारः अप्रत्ययः, अप्रत्ययः अस्ति. किमर्थम्? अत्र यण्येव विधिः अस्ति, अचि इति विधिः नास्ति इति कृत्वा अत्र अकारः अप्रत्ययः अस्ति, अत्र विद्यमान अकारः. इदानीं अत्र अप्रत्ययः एतद् न अप्रत्ययः, क्षम्यतां, तत्तु दोषाय मया उक्तम्. अत्र अत्र एतत् स्वीकुर्मः, अकारः एषः अकारः अच् मध्ये विद्यमानः अकारः, अकारः अप्रत्ययः अस्ति. अप्रत्ययः अकारः इत्युक्ते अण् 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 प्रत्याहारे विद्यमानः अकारः सवर्णस्य स्वस्य च ग्रहणं करोति इति अस्ति. इदानीं सवर्णः अकार केवलम् अकारः स्वीकुर्मः, अकारं स्वीकुर्मः, तदा किं भवति? अच् मध्ये अस्ति अकारः. इदानीम् अप्रत्ययः अण् मध्ये अकारः अस्ति, सः किं करोति? सवर्णस्य स्वस्य च, स्वस्य इत्युक्ते तस्य अकारस्य, अकारस्य अकारस्य अपि च स्वस्य ग्रहणं करोति. इदानीं किमर्थम् एतद् वदामि इति भ्रमः भवति, मनसि संशयः भवति. तस्य उदाहरणम् एवमस्ति. सामान्य उदाहरणं जानीमः, तत्र व्याकरणग्रन्थेषु उपास्य इति सुधियोग उपास्य, सुधियोग उपास्य इति अस्ति.
सुधि सुधीव भवेत् सधि. धन्यवादः.
धन्यवादः. सुधि उपास्य. अत्र इको एनचि इति सूत्रे किम् अस्ति? इकः एण् अचि. इदानीम् इक् मध्ये के के वर्णाः सन्ति? अयोन ऋण एते वर्णाः सन्ति खलु? एते वर्णाः सन्ति. इदानीम् ईकारः अत्र दृश्यते वा? ईकारः न दृश्यते एव, केवलं ह्रस्वकारः एव अस्ति. तदा कथं पृथक्तया प्रत्येकम् ईकारस्य, तदनन्तरं ईकारस्य प्लुत ईकारस्य, तदनन्तरम् अनुनासिक ईकारस्य, अनुनासिक ईकारस्य, तदा प्लुत अनुनासिक ईकारस्य, तादृश अष्टादशभेदाः सन्ति खलु? प्रत्येकस्य भेदस्य सूत्ररचनं कर्तुं न शक्नोति इति कृत्वा प्रत्येकं भेदस्य सूत्ररचना न भवितुमर्हति इति कृत्वा पाणिनिमहर्षि किं कृतवान्? इदानीं तत्र इ इति अस्ति, इ इति इक् मध्ये अस्ति. इ इति वदनेन पाणिनिमहर्षि किं वदति अत्र अस्मिन् वाक्ये उक्तमस्ति. अप्रत्ययः अण् इति अण् मध्ये अस्ति. अप्रत्ययः अण् सवर्णस्य स्वस्य च ग्रहणं करोति. स्वस्य इत्युक्ते ई इत्युक्ते इकारस्य, इकारस्य इत्युक्ते स्वस्य. सवर्णस्य इत्युक्ते किम्? अष्टादशभेदाः, तेषां ग्रहणं करोति इति अर्थः. इत्युक्ते इदानीं सूत्रे इक् इति उक्त्वा न तु केवलम् ई ऊरुळ् इति वर्णानां ग्रहणं, तेषां ग्रहणम् अपि च तेषां सवर्णानां ग्रहणम् इति अर्थः. इदानीम् इकारस्य स्वस्य ग्रहणम् अपि च तस्य सवर्णः के? अष्टादश इकारः इत्युक्ते सप्तदश. स्वस्य इति पदेन तस्य ग्रहणं ह्रस्व अनुनासिक उदात्त इकारः अस्ति इ इति, तस्य ग्रहणम् अभवत्. इदानीं शेष ये ईकाराः अवशिष्टाः इत्युक्ते सप्तदश ईकाराः सन्ति, तेषामपि ग्रहणं भवति इति अर्थः. तदा किं शुद्धि इको एनचि इति सूत्रेण अत्र ईकारः अस्ति चेदपि इक् इति प्रत्याहारेण तस्य ग्रहणं वयं कर्तुं शक्नुमः. अत्र इ एव अस्ति, इ इति नास्ति इति कृत्वा इदानीम् अत्र अनुनासिकः वा अनुनासिकैकारः अस्ति चेदपि तस्य ग्रहणं भवितुम् अर्हति. किमर्थम्? अनेन सूत्रेण अनुदित्सवर्णस्य च अस्ति च प्रत्यय इति सूत्रेण, यद्यपि तत्र सूत्रे इको यणचि इति सूत्रे इक् इत्येव उक्तमस्ति. इक् इति प्रत्याहारे केवलं ह्रस्व अनुदात्त क्षम्यताम् उदात्त ह्रस्व उदात्त अनुनासिक इकार एव उक्तमस्ति. तथापि सः इकारः स्वस्य ग्रहणं करोति, अपि च अन्येषाम् इकाराणामपि ग्रहणं करोति इति अर्थः. अवगतं वा यदा मया उक्तम्?
आम् सम्यक्.
भवती जानाति अन्येषां चिन्तनं किं, तदेव या पूर्वं जानाति तेषां चिन्ता नास्ति. इदानीं यद् मया अत्र उक्तं तद् अत्यन्तं मुख्यविषयः अस्ति, पुनः तत्र अग्रिमवर्गे वदिष्यामि. तु अत्र कः भ्रमः अस्ति इति कोऽपि वदति चेत् तस्य स्पष्टीकरणं कृत्वा वर्गं समापयामि. तत्र संशयः अस्ति चेत् पृच्छन्तु, तस्य निवारणं कृत्वा वर्गं समापयामि. अस्तु, तत्र अग्रिमवर्गे पुनः एतद् पाठयिष्यामि. अस्तु, इदानीम् उ इत्यनेन कस्य अत्र तु अप्रत्ययः इकारः इ एवम् अप्रत्ययः उकारः अस्ति चेत् तत्र अप्रत्ययः उकारः इत्युक्ते इक् मध्ये इक् मध्ये वा अथवा अचि मध्ये विद्यमानः उकारः, यः उकारः एषः उकारः अपि उकारस्य स्वस्य तदनन्तरं सवर्णानां वर्णानां च ग्रहणम् अत्र अस्य सूत्रस्य प्रयोगः पूर्वमेव वयं कृतवन्तः. इत्युक्ते अकुहविसर्जनीयानां कण्ठः इति अत्र किं मया उक्तम्? अत्र पश्यतु, तत्र कुत्र अस्ति वर्णानां स्वरदेव अच्छस अयोगवाहः उच्चारणस्थानं अत्र अकुहविसर्जनीयानां कण्ठः इति मया उक्तं. भवान् एकनिमिषं पञ्चनिमिषं स्वीकरोमि, क्षम्यताम्. अकुहविसर्जनीयां कण्ठः इति उक्तम्, अत्र किं मया उक्तम्? आ इत्यनेन केवलं अकारस्य केवलं ह्रस्व उदात्त अनुनासिक अकारस्य ग्रहणम् इति न तु अष्टादश अकाराणां ग्रहणं भवतु इति मया उक्तं. तत् केन सूत्रेण इत्युक्ते अत्र अनुदित्सवर्णस्य इति प्रत्यय इति सूत्रेणैव तत् तेन आधारेणैव मया उक्तम्. अनेन सूत्रेणैव तत्र अष्टादशभेदान अकाराणां ग्रहणम् इति मया उक्तम् अत्र. एवं तत्र अन्यस्वराणामपि सवर्णग्रहणम् इत्यपि अस्ति, तद् अग्रिमवर्गे वदिष्यामि. अस्तु, धन्यवादः, नमस्कारः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. शुभरात्रिः, नमस्कारः.
शुभरात्रिः, धन्यवादाः महोदय.
कथमस्ति, कथमासीत् अद्यतनवर्गः? शिरोवेदन वा? निद्रा न आगच्छति, शिरोवेदन अस्ति चेत् किं महोदय? किं न अवगतं?
न
श्रूयते एव. तदेव, तत्कारणे एव पूर्व वर्गस्य पूर्वम् इत्युक्ते मध्ये एव एकं श्लोकं मया उक्तः.
The way I understood is napumsakam, that word, if I don't know the samkhya of napumsakam from Panini, I will think is it is not man, it is some lady. Then my mind goes towards somebody who is my sweetheart or something like that. And if it stays there, the rest of the Panini Sutras will kill me. Is that what it means?
न, मया तु प्रेषितं, मनः प्रेषितम् इत्युक्ते ऐ हेव् आल्रेडि सेण्ट् द मैण्ड्.
मै मैण्ड् हेस् द मोमेण्ट् ऐ हर्ड् नपुंसकम् ऐ थाट् इट् इस् अ लेडी, सो देट्स् अ राङ्ग् अण्डर्स्टाण्डिङ्ग्. बट् सो मै मैण्ड् वास् गिवन् टु दट् लेडी बिकास् ऐ थाट् देट् इट् वास् मै संकी इस् राङ्ग्. नपुंसकं मै संकी इस् राङ्ग्. इट् वेण्ट् टु my mind went to that priya, so
tatraiva ramate
iti. And if it stays there, the rest of the Panini Sutras will kill me because I won't be able to understand.
Yes, so since no, I had already sent and it is enjoying there, it is reveling there.
Okay,
the mind is in some wonderland. Okay. Hence the Panini Sutras are killing me.
Okay, so basically it says that
but I still, as you said, I'm myself not able to comprehend why napumsakam iti jnatva, why the
napumsakam maybe had. If I don't know the proper samkhya of that, as per Panini, I may misunderstand napumsakam as not pumsa, which means it could be lady. So proper understanding of samkhya is necessary for me to stay focused. That's how I understood, sir.
Maybe actually actually teacher had what sent me, so I had sent my understanding. She told okay, this is correct. That's why I actually wanted to give this in the class. Yeah, but anyhow, there could be different interpretations also.
But this slokam in the context of samkhya sutram, I thought that
no, it has nothing to do with samkhya sutram. I just told in the class because I thought we need some concentration in the class, just as a diversion. It has nothing to do with vyakarana, it has nothing to do with the sutra. I just for fun I kind of a digression I did.
Namaste mahoday.
Namaskar.
Is there any problem today because I was not able to listen with this FCAC
dialogue? Why everybody seemed to hear, but what was your problem? I didn't understand.
When I connected it gave message that updating the FCC dialer. Then I connected through laptop and I could not hear anything. Then after I tried many times, you might have seen that.
You are connecting to PC?
Yeah, PC.
Basically, no. You should connect through smartphone. You install the app from smartphone. You connect for audio. Then if for video, you can see it on the screen.
After half an hour, I did like that. Then I was listening.
Yeah, so actually it works well on the smartphone only. It doesn't work that well on the PC. PC is primarily, I think they support the data well, but not the audio.
I am connecting through PC and I have no issues at all. I'm connecting.
See, it depends on the internet speed you have.
Okay.
Internet speed and lot of other factors also play. For example, if you are using fiber and connection, you will get a good speed, and your PC should also be kind of at least 5-6 years, not more than that, or maybe that may be
depends and, on the software you have. I have
is there. OS, which lot of factors are there on the PC, but the smartphone, I think pretty much everyone uses Android or Apple, and it's much easier to test and say whether fix problem on smartphone.
The going away from Lagu Siddhanta Kaumudi, we're going away from it. I don't know why Kaumudi has different interpretation, but they ignore certain sutras, it looks like.
I'm unable to hear you. Others can mute. I want to hear what Avinash Madhi is saying something.
Yes.
If others don't have anything, please.
When you talk about this is from Kaumudi and this is actually in the sutra itself.
Na jalo.
Why did Kaumudi go away from or not use?
No, that is because Mahabhasha it is given. In Mahabhasha it is given like that, and it is also much easier. Actually, we don't need a sutra. You just add one vritti to that and it's over. So you don't have to really work hard for that.
Create
a sutra, and that is different. People have different opinions, but it is the same thing. Mahabhashakara says, okay, you don't need a sutra for this. You can just add the vritti. Shalushmanam. You just add that and then it's over. Why do you add another sutra and bring anuvritti and break the head?
Uh-huh.
These things are not required.
Today's class was a little bit difficult for me. I'll have to...
No. This is a very important thing, and it is very difficult also. But technically it's very important. It is only technically it is very important. But generally without this also people do prakriya. So it's not that... Even if you don't understand that much,
I'll
it's okay. As we go through different, when we do the prakriya, its usage will come. So it will get cleared.
Mahoday, if you can explain next class also, it would be better.
I have to explain. I have not done with this. This is only halfway.
It's very difficult.
But
today,
I think Swamrupam was okay. Swamrupam Shabda Sashamya was that clear, because that is also only technical thing. Generally, we don't think, okay, Ramaha Yoga Agachati. We don't think, should we bring Rama, should Rama come for Prakriya? We don't think about it. We already know it's Shabda Shastra. We just try to do Prakriya. We are focused on that. But technically how it is happening is what I am trying to... There is a sutra for this. So people who have... In our ancient times, what happens is, if you give a sutra, they will ask you 10 questions. Why have you put this sutra? Have you covered all the cases? If you say Agneer Duck, should I bring Agni for me to join Duck? Duck Pratyaya. They will ask all these kind of questions. So in order to answer these kind of, basically their thinking is based on Nyaya. So you should have everything covered, all the cases covered. So there cannot be any loophole. So all these things have to be covered so that you can convince other scholars. So Panini Maharishi had written this sutra to explicitly say that it is nothing to do with the object Agni, but the Shabda Agni. Because this is Shabda Shastra. Again, if you say, okay, then if you say Gunaha, should I? Guna means also rope. Rope means Guna. Then our samskaras, the mental tendencies are also Gunas. So should I bring that Guna? People ask. No. Guna is a Sanya in Shastra. Shabda Shastra. So you have to use the sanni of that Shabda. So all these questions have to be answered.
Yeah, I was thinking, how am I going to study this at home? Listening to this is not going to help me in terms of listening to just the your recording, reading it again won't help. So I'll have to somehow figure out. I don't know, because I just have a feeling that it won't help. So I'll have to go somewhere else to figure out what it
means. Different people have different kinds of issues when understanding. So, when I teach, I refer to 4 or 5 books and then only try to teach what is simple. To my knowledge, what is simple, that is what I teach. Which way it will be better, easy to understand.
Yeah.
Okay, if you... First of all, there are 2 prakriyas. One is Siddhanta Kaumari prakriya, then another is Panini prakriya. There is another prakriya which is Mataji's prakriya, which we are doing. We are not yet started. So these 3 prakriyas are there. So
which is the third prakriya?
Mataji's.
Okay.
Mataji. So in my experience, actually, I am also a student. I am not my teachers had asked me to teach, I am doing it. With whichever understanding I have, I am doing it. But what I have felt is, instead of Siddhanta Kaumari Prakriya or even plain Panini Prakriya, Mataji's Prakriya is best. This is my understanding and experience. You will know it after we travel quite far in this. I have been doing almost for 1.5 years to 2 years. So with that clarity, I can say, okay, this is much far easier than Siddhanta Kaumari or any other thing. Is my understanding. Though we use the same sutras and.
One question, Mahadev, that you were typing all the things today, no, in the document.
Right.
Where do I get that to see that?
That's available on our web page. I am sending it every week on the homework. Email, no? And also normal invitation email also it is there.
Yeah, if you click on the link you will get it. It's there.
Yeah. All the notes are being sent every week. So you can
Okay. I think I'm missing the mails maybe because of the I have to check the other folder, sorry.
Is Mataji's Prakriya also available on the web or somewhere, or is it something?
No. Actually, her prakriya is not available. Only Swarup Mahadeya had learned from her directly for over years, and he's in US, so some people might know, I don't know. So, he had actually created the web pages, and he had trained a few people. Oh, sorry, I have not stopped the recording.
Thank you very much. Mahode, you are also in US, Mahode?
I am in India. Why is this recording is not
stopping? No, I am in US. I am in California.
Okay.
Okay.
Mm-hmm. So...